सम्भाषणम्।
नमस्ते।
स्वागतम्। सुस्वागतम्। आगच्छतु। आसनम् अलङ्करोतु। कथयतु, भवान् किम् इच्छति? चायं वा, कापेयं वा, पानकं वा?
धन्यवादः, अहं किमपि न इच्छामि।
एवं न वदतु, किमपि अवश्यं ग्रहणीयम्।
कृपया आग्रहं न करोतु।
इदं न साधु, भवान् मां निराशयति।
यदि एवं तर्हि पानकं ददातु।
अनुगृहीतास्मि, भवान् अत्र वार्तापत्रं पठतु, एषा आगच्छामि। आर्य, अहम् आगता, इदं गृह्णातु, पिबतु, आस्वादयतु। कथमस्ति, मधुरमस्ति?
आम्, मधुरमस्ति, साधु अस्ति।
किञ्चित् अधिकम्?
नहि, पर्याप्तम्।
अपि सर्वं कुशलम्?
आम्, मातुः कृपया सर्वं कुशलम्।
अद्य भवान् अत्र मध्याह्नभोजनं करोतु, रात्रिमपि यापयतु।
कः विशेषः?
न कोऽपि विशेषः।
तर्हि अद्य न, अन्यदिने। अधुना गन्तव्यम्, साधयामि, बहु विलम्बः जातः।
या इच्छा भवतः।
कृपया अन्यथा न चिन्तयतु।
कथं न चिन्तयामि, इत्थं कोऽपि प्रतिगच्छति? चलतु, स्थानकं दर्शयामि।
यानं तु नास्ति।
आगमिष्यति, किञ्चित् कालं प्रतीक्षणीयम्।
महान् सम्मर्दः अद्य।
श्वः दुर्गापूजा, पश्यतु, यानमागच्छति, अग्रे चलतु, आरोहतु।
यानं चलति, भवती शीघ्रम् अवतरतु।
शिवास्ते पन्थानः सन्तु, यात्रा ते सुखदा भूयात्।
अनुगृहीतोऽस्मि, पुनः आगमिष्यामि।
अवश्यम् आगच्छतु, पुनः पुनः आगच्छतु, अस्मान् आह्लादयतु। पुनर्दर्शनाय।
पुनर्दर्शनाय, पुनर्हर्षणाय, पुनर्मातृदेव्याः कृपावर्षणाय।